प्रयत्नत्वा अद्यतनकक्षां प्रारम्भं कुर्मः। तत्र साधना मार्गः कर्ममार्गेण चित्तशुद्धिः, भक्त्या च एकाग्रता, ध्यानमार्गेण च तत्र एकाग्रता फलावाप्तिः, ज्ञानफलावाप्तिः च भवति। तत्र च श्रद्धया करणीयमिति अस्माभिः ज्ञातम्। विवेक वैराग्य शमादि षट्कसम्पत्ति मुमुक्षुत्व इत्यादि तत्र साधना चतुष्टयमपि अस्माभिः दृष्टति। तत्र च मार्गमध्ये श्रवण मनन ध्यान निधिध्यासन इत्यादि तत्र उपकरणानि स्वीकृत्य कर्तव्यानि इति अस्माभिः दृष्टमासीत्। गीताध्ययनक्रमः अस्माभिः दृष्टमस्ति। अपि च तत्र गीतायाः महत्वश्लोकं किञ्चित् किञ्चित् प्रतिनित्यं वदामश्चेत् तत्र गीतायाः महत्वमपि इतोऽपि तत्र स्थिरीभवति इति विषयेण तत्र गीतायाः महत्वश्लोकमपि अत्र योजितमस्ति। महापाप अतिपापानि गीताध्यानं करोति चेत् क्वचित् स्पर्शं न कुर्वन्ति नलिनीदलमम्बुवत्। अपि च गीतायाः पुस्तकं यत्र यत्र पाठः प्रवर्तते तत्र सर्वाणि तीर्थानि प्रयागादीनि तत्र वै। सर्वे देवाश्च ऋषयः योगिनः पन्नगाश्च ये गोपाला गोपिका वापि नारद उद्धव पार्षदैः सर्वैः तत्रैव भवेत्। यत्र गीतापुस्तकं वर्तते वा यत्र पाठः प्रवर्तते तत्र सर्वतीर्थानि प्रयाग देवाः ऋषयः योगिनः पन्नगाः गोपालाः गोपिकाः नारद उद्धव पार्षदैः सर्वैः तत्रैव तत्र भवेत् इति तत्र गीतायाः महत्वश्लोकम् इत्यादिकमस्माभिः दृष्टमस्ति। अनुबन्धचतुष्टयमपि दृष्टमस्ति। विषयस्तावत् समस्तवेदार्थसारसङ्ग्रहः, वेदप्रतिपाद्य प्रवृत्तिधर्मः निवृत्तिधर्मश्च उपदिष्टमस्ति। प्रयोजनम् परम् निश्चयसमेव। अधिकारी यथोक्तप्रयोजनाकाङ्क्षी मुमुक्षुः तपस्कः सः अधिकारी भवति। सम्बन्धश्च प्रतिपादकश्रीकृष्णप्रतिपाद्य तत्र अर्जुनस्वरूप अस्माकं तत्र ये वयं सर्वे स्मः तत्र प्रपादक अनयोः मध्ये भगवद्भक्तमध्ये सम्बन्धः एव सम्बन्धः इत्यादिकं सर्वम् अस्माभिः दृष्टमस्ति। अशोच्यानन्वशोचस्त्वं प्रज्ञावादांश भाषसे गतासु नगतासूंश्च नानुशोचन्ति पण्डिताः इत्यारभ्य प्रथमं तावत् तत्र असत् सत् सत् असत् तयोः भेदः प्रतिपादितः, एवं साङ्ख्ययोगः सम्यक् प्रतिपादितः वर्तते। अनन्तरं तावत् स्वधर्माचरणरीत्या अपि तत्र स्वधर्मरीत्या अपि तत्र विकम्पनं मास्तु, तत्र यत्किमपि मसि चलनं मास्तु, यतः क्षत्रियस्य हि धर्म्यात् युद्धात् अन्यः श्रेयः न विद्यते। अपि च यदृच्छया उपपन्नम् अपावृतं च स्वर्गद्वारमीदृशं युद्धं सुखिनः क्षत्रियाः एव लभन्ते इति श्रीकृष्णः अर्जुनं प्रति वदति। अपि च यदि तत्र स्वधर्माचरणं न करोति चेत् किं भवति? किं जनाः वदन्ति? अर्जुनः तत्र शान्तिवादी, सः तत्र युद्धं न कृतवान्, सः महान् इति वदति वा? नैव, यतः एतत् धर्मयुद्धम्। अपि च अर्जुनस्य वैराग्यमपि न तु नैजवैराग्यं, न तु स्वाभाविकी वैराग्यं, न तु तत्र मुमुक्षुवैराग्यं वा तत्र स्थितप्रज्ञरीत्या वैराग्यं नास्ति, केवलं क्षणिकवैराग्यं। यद्यपि अर्जुनः वदति अहं गुरुनहत्वा हि महानुभावान् श्रेयो भोक्तुं भैक्ष्यमपीह लोके, तत्र भैक्ष्यमध्ये गच्छत्यपि तत्र दिनद्वये सः पुनः यावत् क्षत्रियस्य स्वभावं प्राप्य सः युद्धम् एव करोति, धर्मयुद्धमेव कर्तुं सः इच्छति। एवं चेत् तदर्थमेव तत्र श्रीकृष्णः अर्जुनं पुनः स्वधर्म आचरणे तत्र प्रवर्तनं करोति। एवं कृष्णः अर्जुनं धर्म युद्धे न प्रवर्तते, युद्धार्थं न प्रेरयति, परं स्वधर्माचरणं कर्तुं यत् धर्मयुद्धमस्ति तस्मिन् मध्ये एव प्रेरयति। तत्र भेदः अस्माभिः सम्यक् ज्ञातव्यम्। नो चेत् तत्र केचन जनाः पाश्चात्याः सर्वे वदन्ति गीता ग्रन्थस्तावत् तत्र युद्धप्रेरकग्रन्थः इति तत्र ते तत्र वदन्ति, परम् अस्माभिः तत्र सम्यक् ज्ञातव्यम् यत् तत्र गीतामध्ये स्वधर्माचरणमुक्तमस्ति, अर्जुनस्य वैराग्यमपि न तु स्वाभाविकी वैराग्यं नास्ति, तत्र मुमुक्षुवैराग्यं नास्ति, तत् केवलं क्षणिक भयविषादसम्मिलितवैराग्यवत् भावना एव भवति तत्र एतदेव तत्र भेदः प्रकल्पितः अस्ति. अनन्तरं तावत् यदि स्वधर्मं नाचरति चेत् तत्र अकीर्तिं लब्ध्वा स्वधर्मत्यागेन च अधर्मं कृत्वा तत्र पापमवाप्स्यसि. जनाः अपि केवलं निन्दन्ति. संभावितस्य चाकीर्तिः मरणादतिरिच्यते इति तत्र सः वदति. अग्रे अपि कर्मं कर्म तावत् कथं कर्तव्यं, किमर्थं कर्तव्यं, योगरूपेण कर्तव्यं, कौशलत्वेन कर्तव्यं, फल अनपेक्षया कर्तव्यं, परमपि तत्र फलं विना परम् अतीव कौशल्येन तत्र अतीव सम्यक् कर्म कर्तव्यं. यत् विहितमस्ति तत्सर्वं विहितकर्माचरणं कर्तव्यम्, अविहितकर्म आचरणं न कर्तव्यम् इत्यादिकं सर्वं तत्र कर्मण्येवाधिकारस्ते मा फलेषु कदाचन कर्मफलहेतुर्भूः मा ते सङ्गोस्त्वकर्मणि इति इत्यादि श्लोकेषु दृष्टमस्ति. अनन्तरं तावत् समाधौ अचला बुद्धिः इति तत्र वाक्यं स्वीकृत्य समाधौ अचला बुद्धिः इति वाक्यं स्वीकृत्य अर्जुनः कृष्णं प्रति पृच्छति, सितप्रज्ञस्य आभाषा सितदीः किं प्रवाशेत, किम् आसीत, किं व्रजेत इत्यादिकं. तत्र सर्वान् मनोगतान् कामान्यः प्रजहाति प्रथमं कण्डीशन्. द्वितीयं कण्डीशन् तावत् आत्मन्येव आत्मना तुष्टः. कुत्र तुष्टः भवति? तः आत्मनि एव आत्मना तुष्टः. आत्मनि जीवात्मनि तन्मध्ये वर्तमान परमात्मनि तुष्टः भूत्वा सः यदा तत्र यस्य ब्रह्मणि रमते चित्तं नन्दति नन्दति नन्दत्येव तादृश अवस्थायां यः भवति सः एव तदा एव चितप्रज्ञः उच्यते. अनन्तरं तत्र स्थितदीः इति तत्र यः मुनिः अस्ति सः कथं भवति? चितप्रज्ञस्य तावत् दुःखं वा सुखं, जय पराजय, लाभ अलाभ, निन्दा स्तुति इत्यादिकं सर्वं तत्र तादृश अवस्था स्वभावः नैव भवत्येव. तदनन्तरमेव यदि तत्र दुःखं वा सुख तत्र सुखं वा दुःखं तत्र भेदः अस्ति चेदेव तत्र तेषां भावना भवति. परं तत्र भेदः एव नास्ति. दुःखेष्वनुद्विग्नमनाः सुखेषु विगतस्पृहः. वीत इत्युक्ते त्यक्त रागभयक्रोधः स्थितदीः मुनिरुच्यते. क स्थितदीः मुनिः इति अस्माभिः दृष्टति. द डेफिनेशन्स् आफ् स्थितप्रज्ञा अण्ड् स्थितदीः वेरि क्लियर्लि दत्तमस्ति. अग्रे गच्छति देन् श्लोक 57, 58, 59, 60 सर्वं तत्र स्थितप्रज्ञस्य प्रवृत्तिलक्षणं कथं सः प्रवृत्तिं करोति. यः सर्वत्र अनभिस्नेहः, स्नेहः स्निह्यता अटाच्मेंट्, अनभिस्नेहः डिटाच्ड्. यः हु सर्वत्र एव्रीवेर् डिटाच्ड् भवति. अनन्तरं शुभं प्राप्य नाभिनन्दति, अशुभं प्राप्य न द्वेष्टि, तस्य प्रज्ञा प्रतिष्ठिता भवति. Who does not rejoice greatly on getting something good, who does not feel sad on not getting something greatly, tadrsha avasthayam bhavati, tasya prajna pratishthita bhavati. Kurmonganiva sarvashah, very very powerful comparison simile. We saw various reasons for it. Tatra kurmonganiva sarvashah, detailed explanations we saw why kurmonganiva, whenever required all the sense organs should still be working. तत्र यदा नावश्यकं तत्र सर्वं तावत् आल् द सेन्स् आर्गन्स् वेन् दर् इस् अन् आन्स्लाट्, इन्द्रियाणि इन्द्रियार्थेभ्यः यदा तत्र आन्स्लाट् भवति, यदा युद्धं भवति, तदा आल् द इन्द्रियास् मनस् इन्क्लूडिङ्ग् द मनस् शुड् बि फुल्लि विद्ड्रान् इन्सैड् एण्ड् द हार्ड् शेल् शुड् बि क्रियेटेड् वेर् इन् एनी अमौण्ट् आफ् बीटिङ्ग् बै द इन्द्रियास् शुड् नाट् अफेक्ट् द इन्नर् आर्गन्स् एण्ड् शुड् नाट् अफेक्ट् द इन्नर् पोर्शन् आफ् द कुमा. तादृशरीत्या भवितव्यम्. एवमेव कूर्मोङ्गानिव सर्वशः, अपि च झटि विद् इन् स्प्लिट् सेकेण्ड्स् इमिट्लि आल् द सेन्सर् शुड् बि विड्रान् फ्रम् द सेन्स् आब्जेक्ट्स्. तदर्थमेव कूर्मोङ्गानिव इत्यपि दत्तमस्ति. एवं कूर्मोङ्गानिव यदा सः विड्रा करोति तादृशसाधकः तत्र स्थितप्रज्ञ मार्गे गन्तुम् अर्हः भवति. Next 59 clearly tells the difference between a sadhaka and a sthitaprajna. Vishaya vinivartante niraharasya dehinah rasavarjam sopyasya param drishtva nivartate. Tatra sadhakaha kim kurvanti, they keep themselves away from all the sense objects or the materialistic objects which will entice them, which will pull them towards mohamaya. We took the example of Ekadashi, we took the example of any sweets, we took the example of a lot of other things also. And param sitaprajnya katam bhavati. He is in a very equipoised state of mind itself. Him he has forgotten even the feel, touch, taste, like or whatever thoughts about the object, materialistic object itself. Param sadhaka, he has forcibly closed his eyes, ears, the nose and away from all these, and he is trying to go to that marga, and he is trying to go away from the vishayaha. Param yaha tatra sitaprajnya bhavati saha rasa varjam rasopyasya, even that thought does not come to his mind of those kind of enjoyments. Evam tatra sitaprajnya, very clear difference has been given so that people should not confuse. Just for a yogi who is sitting for a day and trying to do dhyana does not become a sitaprajnya. Sitaprajnya is such an internal inherent concept of the mind. When it becomes totally equipoised and it's in a natural state of mind, it is not affected by sukha dukha. Tadrsha avastha eva sitaprajnyata natu kevalam dhyana hata yoga avastha sitaprajnyata naiva bhavati. Anantaram tavat 60 and 61, again he gives a small problem what people will face when a sadhaka tries to close all his sense organs and tries to control them. Yatatohyapi kaunteya, yatataha means sadhakaha, syapi vipaschitaha yataha purushasya, vipaschitaha, a very very knowledgeable person. Tadrushasya api kimbhavanti indriyani pramathini haranti prasabham manaha, very forcibly the indriyas try to pull the manas across and they very very forcibly try to do. Then what we should do? Again, answer to that is the simple sloka: satsangatve nissangatvam, nissangatve nirmohatvam, nirmohatve nischalatatvam, nischalatatve jivan buktihi. Satsanga is the first step towards all the other sadhana. Either satsangam is like satsangaritya yadi gacchamaschete tatra nama sankirtanam va bhavatu, saptaha parayanam va bhavatu, upanyasam va bhavatu, tatra pratinitya pujadikam va bhavatu, tatra yatkimapi va bhavatu, tatra satsangatve yada gacchamaha, that is the first step we can take towards the proper sadhana marga. Tani sarvani indriyani samyamya yukta asita matparaha kasya paraha. Mat paraha means what? Mama paraha, mat paraha. Mama ityukte paravasudeva paraha. Paravasudevaha yaha asti, paravasudevaha paramatma sarvatra vyapakaha sarvavyapi sarvabhutantaratma karmadhyakshaha yaha asti tadrshaha yeva. Samichinam. Paramartham drishtva manushyasya raso api nivartate. Very very correct, very good. Samichinam, which is what we took some of the examples of. Let us say somebody takes the best badam halwa. All the other sweets which are there around becomes tasteless actually. He is not able to even feel the taste. Similarly, when somebody listens to the best of songs of the best singer, all the other songs which are there does not entice him anymore, excite him anymore. Similarly, paramartham drishtva manushyasya rasopi nivartate, anya rasopi nivartate. Yet evam rityapi svikartum shakyate. Samichinam. Anyat upanishat rityas kurmaschet tatra rasovaisa rasagyeva yamlabdhva anandi bhavati ityapi svikartum shakyate. That is Taittiriya Upanishad. Again it takes a little bit different tangent also there. We can take it. Fine. Okay. Tani sarvani samyamya yukta asita matparaha vashehi asya indriyani tasya prajna pratishtita. So as we start trying to divert the mind towards the paramatma, automatically all the other thoughts and other desires, everything slowly drop out ourselves. It just drops out of ourselves slowly when the mind is fully concentrated upon him. The viveka vairagya ityadikam sarvam naturally agachati. Evameva asmabhi drishtamasite. Anantram, we also saw the anartha parampara loop, 62-63 shloka numbers. We just introduced ourselves to that. And how 64-65 also becomes positive loop. This is the negative loop. What sadhaka should not get into. That is already, first the cautionary words are already given. Dhyayataha vishayan. Vishayan dhyayataha. Again, though we should not see dhyayataha in random basis. Vishayan dhyayataha sangaha bhavati. Param paramatmani dhyanam karoti chet paramatmanam dhyayataha sangaha satsangayashu pajayate. దట్ ఈస్ ద ఆపోజిట్ వేర్ వి హావ్ టు గో. విషయాధ్యాయతః సంగః జాయతే, సంగః అటాచ్మెంట్ జాయతే, సంగాత్ సంజాయతే కామః. ఫ్రమ్ దట్ అటాచ్మెంట్ అ గ్రేట్ ప్యాషన్ ఆర్ గ్రేట్ డిసైర్, డీప్ రూటెడ్ గ్రీడ్ కమ్స్ ఇన్ టు ప్లేస్. Once that comes in, what happens? Till the kama is being increased, it is fulfilled, new kama, which is an increased level comes in. Again increased level comes in, it keeps on increasing. Finally, when that increased kama is not able to be satisfied, krodha abhijayate. Then krodha comes in, what happens? Sammoha, there is a delusion which happens. And then sammoha smriti vibhramaha. All the background, how we wanted it, why do we want it, is the reasoning for it. We forget everything. We forget who is good person, who is bad person. We forget what is the good thing we want, what is the bad we want. Everything, sarvam tavat smriti vibramaha bhavati, smriti bramshad buddhinashaha. The ability to decide whether our wanting is right or not, the ability even think, the ability to respond and react in a positive way, sarvam tavat nashtaha bhavati, buddhinashat pranash. నాశః భవతి. ఏవం విషయధ్యానం లీడ్స్ టు పరిపూర్ణ ప్రణాశః, ఫుల్ కంప్లీట్ డిస్ట్రక్షన్. దట్ ఈస్ వై ద విషయధ్యానం షుడ్ బి అవాయిడెడ్. విషయధ్యానం ఆర్ ద దుస్సంగః, ద అటాచ్మెంట్, సంగః ఇట్ సెల్ఫ్ విచ్ ఇస్ దేర్, దట్ షుడ్ బి అవాయిడ్. అవర్ విషయధ్యానం షుడ్ బి అవాయిడ్. విచ్ వాట్ the same shloka has been transferred in, like we have seen in many organizations, offices, even in public government places, they kind of put that, watch your words, they become actions. Watch your thoughts, thoughts become words, words become action, action becomes a habit, habit becomes character, and character becomes destiny. Therefore always watch your thoughts. So how thoughts can become a destiny? Because people say destiny cannot be controlled, destiny is, it's just serendipity, destiny cannot be controlled, that is what people say. But then watch your thoughts. Yada tatra makam thoughts pure bhavati, which is people keep telling, bhadram karne vishrunuyama devaha, bhadram pashye makshabiriyatraha, evam eva janaha vadanti ano bhadraha kartavoyanshvataha. Let good things come to us from all sides. తదర్థమేవ సీ గుడ్, డూ గుడ్, ఫీల్ గుడ్, ఏమేవ కర్తవ్యం, తదర్థమేవ ఇట్ క్యాన్ చేంజ్ ఈవెన్ పీపుల్స్ డెస్టినీ, ఏమేవ భవతి. తత్ర అనంతరం శ్లోక 64-65 తత్ర పశ్యామశ్చేత్, శ్లోక 64 మధ్యే ద ఫ్రమ్ హియర్ 62-63 గేవ్ ద అనర్థ పరంపరా లూప్. 64 దేర్ ఫోర్ కమ్స్ టు ద పాజిటివ్ ఆస్పెక్ట్ ఆఫ్ ఇట్. వాట్ విల్ ఇట్ టెల్? రాగద్వేష వియుక్తైస్తు విషయాన్ ఇంద్రియశ్చరన్ ఆత్మవశ్యేర్ విధేయాత్మ ప్రసాదమధిగచ్చతి. విధేయాత్మాశ కిం కరోతి తత్ర విధేయాత్మ, విధేయాత్మ అగైన్ ఇస్ నథింగ్ బట్ స్థిత ప్రజ్ఞ. విధేయాత్మ ఈక్వల్ టు స్థిత ప్రజ్ఞ. యహ తత్ర పరిపూర్ణ సాధక వర్తతే. తాదృశ విధేయాత్మ కిం కరోతి? ఆత్మవశ్యై రాగద్వేష వియుక్తై ఇంద్రియై, ఇంద్రియై సహ విషయాన్ చరతి, సహ ఇంద్రియై విషయాన్ చరతి. సోపి తత్ర ఈవన్ ద స్థిత ప్రజ్ఞ ఎంజాయ్స్ ద లౌకిక బెనిఫిట్స్ ఆల్సో. వి ఆల్వేస్ సీ ఈవెన్ ద గ్రేటెస్ట్ ఆఫ్ పీపుల్, ద ఆచార్యాస్, ద సద్గురవః, ఆర్ ఆల్సో యూజింగ్ ద మోడర్న్ టెక్నాలజికల్ బెనిఫిట్స్ అండ్ దే ఆర్ యూజింగ్ ఇట్. బట్ హౌ ఆర్ దే యూజింగ్ ఇట్? దే హ్యావ్ టు విశేషణాస్ ఫర్ దట్. వన్, ఆత్మవశ్యై. ద ఇంద్రియాస్ వైల్ రిసైడింగ్ అపాన్ దెమ్ ఆర్ అండర్ దేర్ కంట్రోల్. దే నో హౌ మచ్ టు యూస్ అండ్ హౌ మచ్ నాట్ టు యూస్, వెన్ టు అలౌ ద ఇంద్రియాస్ టు గో అండ్ వెన్ ద ఇంద్రియాస్ షుడ్ బి ఫుల్లీ అగైన్ విత్డ్రాన్ ఫ్రమ్ ఇట్. కూర్మోంగానివ, దే నో హౌ టు మానిటర్ దేర్ అంగాస్ కూర్మోంగానివ. సో ఏవం తత్ర ఆత్మవశ్యై. సెకండ్ క్వాలిటీ ఆఫ్ దేర్ ఇంద్రియాస్ ఇస్ రాగ ద్వేష వియుక్తై. ఆల్ అవర్ ఇంద్రియాస్ ఆర్ రాగద్వేష, విచ్ ఇస్ వై తత్ర వయం పశ్యామశ్చేత్ వన్ ఆఫ్ ద గ్రేటెస్ట్ అట్రిబ్యూట్ ఆఫ్ అ గురు విల్ బి వన్ అవ్యాజ కరుణామూర్తి, సెకండ్ హీఈస్ అ హితైషి. హితైషి ఇత్యుక్తే కహ? యహ హితైషి భవతి, కహ హితైషి భవతి? యహ తత్ర రాగాది రాగద్వేషాది రహితో భూత్వా యహ తత్ర హితాన్ సహ బోధయతి సహ ఏవ ಪುರೋಹಿತಃ ವಾ ಸಹ ಏವ ಸದ್ಗುರುಃ ಸಹ ಏವ ಹಿತೈಷಿ ಸಹ ಏವ ಶಾಸ್ತ್ರಜ್ಞಃ ಇತ್ಯಪಿ ತತ್ರ ಉಚ್ಯತೆ ತತ್ರ ಉಚ್ಯತೆ ಏವಂ ತತ್ರ ರಾಗದ್ವೇಷ ವಿಯುಕ್ತೈಃ ಆತ್ಮವಶ್ಯೈಃ two very very powerful characteristics of a vidheyatma's indriya and a non vidheyatma or a non sadhaka's indriya. Non sadhaka's indriya will be what? Indriya will control the manas. Indriya will control the manas, and the indriya also has raga, dvesha, ityadikam. It comes with a baggage, it comes with a bondage, it has its own biased perceptions, preconceived notions bhavati indriya madhye. With those the indriyas work. ಪರಂ ವಿಧೇಯಾತ್ಮ ಸಿತಪ್ರಜ್ಞಸ್ಯ ಕಥಂ ತತ್ರ ಕಾರ್ಯಂ ಕರೋತಿ ಇಂದ್ರಿಯಾಣಿ ತತ್ರ ರಾಗದ್ವೇಷ ವಿಯುಕ್ತೈಃ ಆತ್ಮವಶ್ಯೈಃ ಇಂದ್ರಿಯೈಃ ಸಹ ವಿಷಯಾಂಚರತಿ ಹಿ ಎಂಜಾಯ್ಸ್ ದ ಸೆನ್ಸ್ ಆಬ್ಜೆಕ್ಟ್ಸ್ ತತ್ರ ವಿಧೇಯಾತ್ಮ ಆಲ್ಸೋ ಎಂಜಾಯ್ಸ್ ದ ಸೆನ್ಸ್ ಆಬ್ಜೆಕ್ಟ್ಸ್ ಪರಂ ಏವಂ ರೀತ್ಯಾ ಸಹ ಎಂಜಾಯ್ ಕರೋತಿ ಅನಂತರಂ ಪ್ರಸಾದಂ ಅಧಿಗಚ್ಚತಿ ತೇ ಅಪಿ ತತ್ರ ಸದ್ಗುರವಃ ಅಪಿ ತತ್ರ ಯೇ ತತ್ರ ಆಚಾರ್ಯಾಃ ಸಂತಿ ತೇ ಅಪಿ ದೇ ಆಲ್ಸೋ ಯೂಸ್ ದ ಮಾಡರ್ನ್ ಫೆಸಿಲಿಟೀಸ್ ಆಫ್ ಅ ಕಾರ್ ಆರ್ ಅ ಟ್ರಾನ್ಸ್ಪೋರ್ಟ್ ಅಂಡ್ ಗೋ ಟು ಪ್ಲೇಸಸ್. ಪರಂ ತತ್ರ ಗತ್ವಾ ಕಿಂ ಕುರುವಂತಿ ಪರೋಪಕಾರಂ ಕುರುವಂತಿ ಪರೋಪದೇಶಂ ಕುರುವಂತಿ ಜನಾನಾಂ ಮನಸಿ ತತ್ರ ಸ್ಥಿರಭಕ್ತಿಂ ಉತ್ತೇಜಯಂತಿ ಲೋಕಕಲ್ಯಾಣಾರ್ಥಂ ಕಾರ್ಯಂ ಕುರುವಂತಿ ನಿತ್ಯ ಪೂಜಾಂ ಕುರುವಂತಿ ದೇ ಲೀಡ್ ಬೈ ಎಕ್ಸಾಂಪಲ್ ಅಂಡ್ ದೇ ಪರ್ಫಾರ್ಮ್ ಆಲ್ ದ ಡ್ಯೂಟೀಸ್ ವಿಚ್ ಆರ್ ಅಲೋಕೇಟೆಡ್ ಏವಂ ತತ್ರ ಪ್ರಸಾದಂ ಅಧಿಗಚ್ಚತಿ. ಸರ್ವಂ ತತ್ರ ಅನುಭೂಯ ತತ್ರ ವಿಷಯ ಸುಖಂ ಯದ್ಯಪಿ ಅಸ್ತಿ ತತ್ಸರ್ವಂ ತೇ ಅಪಿ ತತ್ರ ಅನುಭವಂ ಕುರುವಂತಿ ಪರಂ ಆತ್ಮವಶ್ಯೈಃ ರಾಗದ್ವೇಷಯುಕ್ತೈಃ ಇಂದ್ರಿಯೈಃ. ವಿತ್ ದೋಸ್ ಕೈಂಡ್ ಆಫ್ ಇಂದ್ರಿಯಾಸ್ ದೇ ಆರ್ ಎಂಜಾಯಿಂಗ್ ಇಟ್, ಬಟ್ ದ ಅದರ್ ಪೀಪಲ್ ದ ಇಂದ್ರಿಯಾಸ್ ಎಂಜಾಯ್ ದೆಮ್. ಏಮೇವ ಭೋಗಾನ ಭುಕ್ತಃ ವಯಮೇವ ಭುಕ್ತಃ ತಪೋನ ತಪ್ತಃ ವಯಮೇವ ತಪ್ತಃ ತೃಷ್ಣಾನ ಜೀರ್ಣಾಃ ವಯಮೇವ ಜೀರ್ಣಾಃ ಏವಂ ಭಯಮ ಭವತಿ. ಸೊ ಅಗ್ರೇ ಪಶ್ಯಾಮಃ ಅಗೇನ್ ದೆನ್ ದ ನೆಕ್ಸ್ಟ್ ಲೂಪ್ ಒನ್ಸ್ ಪ್ರಸಾದ ಅಧಿಗಚ್ಚತಿ ಪ್ರಸಾದಂ ಪರಮಾನಂದಂ ಬ್ರಹ್ಮಾನಂದಂ ಯದತ್ತಿ ದ ಸುಪ್ರೀಂ ಬ್ಲಿಸ್ ತಾದೃಶ ಪ್ರಸಾದಂ ಅಧಿಗಚ್ಚತಿ ಪ್ರಸಾದೇ ಕಿಂ ಭವತಿ ಸರ್ವದುಃಖಾನಾಂ ಹಾನಿಃ. ವೈ ಸರ್ವದುಃಖಾನಾಂ ಇಸ್ ಯೂಸ್ಡ್ ವಿ ಡಿಸ್ಕಸ್ಡ್ ಗುಡ್ ಥಾಟ್ ಮೆನ್ಸ್ ಈವಿಲ್ ಒನ್ ಎಂಡ್ಸ್. ವೆರಿ ಗುಡ್ ಗುಡ್ ಮೆನ್ಸ್ ಈವಿಲ್ ಎಂಡ್ಸ್ ವೆರಿ ನೈಸ್ ಸಮ್ಯಕ್ ಅಸ್ತಿ. ಪ್ರಸಾದೇ ಸರ್ವದುಃಖಾನಾಂ ಹಾನಿಃ ಸರ್ವದುಃಖಾನಾಂ ಹಾನಿಃ ಸರ್ವದುಃಖ ಇತ್ಯುಕ್ತೆ ಕಿಂ ಬಾಹ್ಯ ದುಃಖ ಆಂತರಿಕ ದುಃಖ ಆಧಿ ವ್ಯಾಧಿ ಬೋತ್ ವಿ ಹವ್ ಸೀನ್ ವಾಟ್ ಇಸ್ ಆಧಿ ಅಂಡ್ ವಾಟ್ ಇಸ್ ವ್ಯಾಧಿ ಫಿಸಿಕಲ್ ವ್ಯಾಧಿ ಆಂತರಿಕ ಯದಸ್ತಿ ಮೆಂಟಲ್ ಸರ್ವಂ ಯದಸ್ತಿ ತತ್ ಆಧಿ ಅಂಡ್ ಎಕ್ಸ್ಟರ್ನಲ್ ಇಂಟರ್ನಲ್ ಸರ್ವಂ ಭವತಿ. ಅನಂತರಂ ವಿ ಆಲ್ಸೋ ಸಾ ಅನದರ್ ಡೆಫಿನೇಷನ್ ಆಫ್ ಸರ್ವದುಃಖಾನಾಂ ಸರ್ವದುಃಖಾನಾಂ ವುಡ್ ಬಿ ಆಧ್ಯಾತ್ಮಿಕ ಆಧಿ ದೈವಿಕ ಆಧಿ ಭೌತಿಕ ತಾಪತ್ರಯ ನವನವ ಜನಿತ ತಾಪತ್ರಯಾದಿ ಸಮಸ್ತ ದುಃಖಾನಾಂ ಉನ್ಮೂಲನಂ ವಿ ಡೂ ಸಂಕಲ್ಪ ಲೈಕ್ ದಟ್. ಸೊ ಏವಂ ತತ್ರ ಆಧ್ಯಾತ್ಮಿಕ ತತ್ರ ಆಲ್ ದ ಎನಿಥಿಂಗ್ ವಿಚ್ ಇಸ್ ರಿಲೇಟೆಡ್ ಟು ದ ಬಾಡಿಲಿ ಆರ್ ಮೆಂಟಲ್ ಡಿಸ್ಟೆಂಪರ್ ವಿಚ್ ಇಸ್ ದೇರ್ ತಾದೃಶ ರೀತ್ಯಾ ಆಧಿ ಆತ್ಮಿಕ ಆಧಿ ದೈವಿಕ ತತ್ರ ದೈವರೀತ್ಯ ಎಕ್ಸ್ಟರ್ನಲ್ ಕಾಸಸ್ ದೈವರೀತ್ಯ ಪ್ರಾರಬ್ಧ ಇತ್ಯಾದಿಕ ರೀತ್ಯ ದೈವರೀತ್ಯ ಇದ್ಭವತಿ ತತ್ ಆದಿ ದೈವಿಕ ತಾಪ ಆದಿ ಭೌತಿಕ ತಾಪ ಇತ್ಯುಕ್ತೆ ಯತ್ ಯಹ ತಾಪ ತತ್ರ ಆದಿ ಭೌತಿಕ ರೀತ್ಯ ಬೈ ಎಕ್ಸ್ಟರ್ನಲ್ ಅನಿಮಲ್ ಅದರ್ ಪೀಪಲ್ ಅಂಡ್ ಆಲ್ ವೆನ್ ಯದಿ ತತ್ರ ತಾಪ ಭವತಿ ತದೇವ ಆಧ್ಯಾತ್ಮಿಕ ಆದಿ ದೈವಿಕ ಆದಿ ಭೌತಿಕ ಇತ್ಯಾದಿ ತತ್ರ ತಾಪ ಸಾಂಸಾರಿಕ ತಾಪಾಃ ಯತ್ ಸಂತಿ ದ depression, the fear, the bhaya, the krodha, lobha, moha, ityadikam sarvam tavat yatra bhavati tadrsha dukham sarvam anyat tavat sarva dukkhanam ityukte kim. One more explanation which we can think on dukkhanam sarva dukkhanam moolatah unmoolanam all the dukkhas by root it gets ಹಾನಿಃ ತತ್ರ ಉನ್ಮೂಲನಂ ಭವತಿ ನಾಶಃ ಭವತಿ ಬಿಕಾಸ್ ಆಲ್ ದ ದುಃಖಸ್ ವೆನ್ ಇಟ್ ಇಸ್ ನಾಟ್ ಡಿಸ್ಟ್ರಾಯ್ಡ್ ಬೈ ದ ರೂಟ್ ವಾಟ್ ಹ್ಯಾಪನ್ಸ್ ಇಸ್ ಇಟ್ ವಿಲ್ ಕೀಪ್ ಆನ್ ಕಮಿಂಗ್ ಬ್ಯಾಕ್ ಅಗೇನ್ ಅಂಡ್ ಅಗೇನ್. ಏವಂ ರೀತ್ಯಾ ಸರ್ವ ದುಃಖಾನಾಂ ಹಾನಿಃ ವಿಲ್ ಬಿಕಮ್ ಇಸ್ ಆಧ್ಯಾತ್ಮಿಕಾದೀನಾಂ ಸರ್ವ ದುಃಖಾನಾಂ ನಾಶಃ ಮೂಲತಃ ನಾಶಃ ಕರಣೀಯಂ ತದೇವ ತತ್ರ ಭವತಿ ಪ್ರಸಾದೇ ಸರ್ವ ದುಃಖಾನಾಂ ಹಾನಿಃ ಭವತಿ ಅನಂತರಂ ಪುನಃ ಕಿಂ ಭವತಿ ಪ್ರಸನ್ನ ಚೇತಶಃ ಹ್ಯಾಶು ಬುದ್ಧಿಃ ಪರ್ಯವತಿಷ್ಠತೆ. ప్రసన్న చేతసహ, వన్ హూ ఇస్ ప్రసన్న చేతస్ ఆల్వేస్ విత్ ద వెరీ వెరీ ప్లీజింగ్ అండ్ ప్లెసెంట్ మైండ్, తాదృశస్య కిం భవతి బుద్ధిః ఆశు పర్యవతిష్టతే. ఆశు సద్యః ఇమీడియట్లీ, ఆశుతోషి ఇమీడియట్లీ పర్యవతిష్టతే, పర్యవతిష్టతే నిశ్చలతయా నిర్మలతయా భవతి, కించిదపి స్ఖలనం విచలనం వా న భవతి నిశ్చలతయా భవతి. ఇట్ ఇస్ టోటలీ ఎస్టాబ్లిష్డ్. కుత్ర నిశ్చలతయా భవతి, కుత్ర తత్ వేర్ వేర్ కుత్ర పర్యవతిష్టతే, ఆల్వేస్ ద వెన్ పర్యవతిష్టతే ఇస్ యూస్డ్ వీ హావ్ టు ఆస్క్ ద క్వశ్చన్ కుత్ర వేర్ కుత్ర వేర్ డస్ ఇట్ బికమ్ పర్యవతిష్టతే, తత్ర ఆత్మస్వరూపేణ ఏవ తత్ర నిశ్చలీ భవతి. ఆత్మస్వరూప రీత్యా ఇన్ ద పరమాత్మ హూ ఇస్ దేర్ విదిన్ అస్, ఇన్ ద పరమాత్మ విదిన్ అస్ తత్ర తత్ర బుద్ధి మనః అస్య మనః తత్ర నిశ్చల రీత్యా ఎస్టాబ్లిష్ భవతి. ఏతావత్ పర్యంతం అస్మాభి పూర్వం దృష్టమస్తి. తత్ర 66-67 మధ్య 66 శ్లోకార్థం తత్ర స్లైడ్ న కృతమస్తి. యద్యపి వయం తత్ర శ్లోకం పశ్యామః, ఐ విల్ సెండ్ అక్రాస్ లెటర్ ఆన్ ద డీటెయిల్స్ అండ్ నోట్స్ అండ్ స్లైడ్స్, వి విల్ డూ ఇట్ లెటర్, బట్ ఫార్ నౌ వి విల్ సీ ద శ్లోక నంబర్ 66. నాస్తి బుద్ధిరయుక్తస్య నచాయుక్తస్య భావనా నచాభావయత శాంతిః అశాంతస్య కుతః సుఖం. ఏకవారం తత్ర శ్లోకం పఠంతు పదచ్ఛేదం పశ్యంతు, తత్ర పద పద పరిచయం పశ్యామః, ఆల్సో తత్ర అన్వయం పశ్యామః. శ్లోకం ద్వివారం పఠంతు కర్తృకర్మ క్రియా అన్వేషణం కుర్వంతు. అగైన్ నెగటివ్ అఫర్మేషన్ అస్తి, తత్ర నెగటివ్ రీత్యా గచ్చతి వదతి కిం కిం న భవతి ఇతి. అయుక్తస్య బుద్ధిః నాస్తి, వెరీ గుడ్, ఎక్సలెంట్. అయుక్తస్య బుద్ధిః నాస్తి ఫస్ట్, అపి చ అయుక్తస్య భావనా నాస్తి, అభావయతః శాంతిః నాస్తి. సమీచీనం, అయుక్తస్య భావనా నాస్తి, సమీచీనం. దెన్ ద లూప్ స్టార్ట్స్ ఫ్రమ్ దేర్ లూప్. అయుక్తస్య భావనా నాస్తి, అభావయతః శాంతిః నాస్తి, అశాంతస్య సుఖం నాస్తి. అభావయతః శాంతిః నాస్తి, అశాంతస్య సుఖం నాస్తి. ఏమేవ, వెరీ వెరీ కరెక్ట్, ఎక్సలెంట్. అయుక్తః, అయుక్తః ఇత్యుక్తే కః, అయుక్తః ఇత్యుక్తే కః, అయుక్తః ఇత్యుక్తే యః తత్ర స్థితప్రజ్ఞః నాస్తి, యః తత్ర సాధకః వా అపి నాస్తి, యః తత్ర ఇంద్రియ నిగ్రహం కర్తుం అశక్తః. అయుక్తః జితేంద్రియ మార్గే అశక్తః, అజితేంద్రియః అన్స్టడీ, ఓకే, అన్స్టడీ హూ ఇస్ నాట్ ఏబుల్ టు కంట్రోల్ ద మైండ్ యః భవతి తాదృశః అయుక్తస్య. అయుక్తస్య బుద్ధిః నాస్తి, when say buddhi nasti, again not in the reetya of that he does not have a brain, tadrasha reetya nasti, tatra steady mind nasti. Ayukta purushasya buddhih na bhavati, buddhih ityukte we have already seen the for the earlier, in many of the early shlokas we have seen buddhi does not just refer to a brain. Buddhih ityukte samatva buddhi స్థిత ప్రజ్ఞ, తత్ర స్థిత ప్రజ్ఞత యదస్తి తదేవ తదేవ ఉక్తమస్తి. బుద్ధిః అయుక్తస్య బుద్ధిః స్థిరా బుద్ధిః నాస్తి. అనంతరం కిం భవతి, అనంతరమపి అన్యదపి ఉక్తమస్తి. అయుక్తస్య यदा आचार्य शंकराचार्य भाष्ये पश्यामश्चेत् युक्तस्य व्हाट इज द डेफिनेशन गिवन असमाहित अंतःकरणस्य असमाहित अंतःकरणस्य वेरी वेरी गुड डेफिनेशन दिस इज अयुक्तस्य असमाहित अंतःकरणस्य योगरहितस्य समत्वरहितस्य स्थितप्रज्ञतारहितस्य पुरुषस्य स्थिरा बुद्धिः नास्ति. He is just reconfirming that definition of ayukta. That's all in the first part, first line. Ayuktasya buddhihi nasti. Ayukta purushasya samatva buddhihi, yoga buddhihi, asamahitanta karanasya. Buddhihi, again one more definition which Shankara gives, is atmasurupa vishaya buddhihi nasti. Atmasurupa vishaya buddhihi nasti. Then what happens? Ayuktasya bhavana api nasti. Ayuktasya bhavana. Bhavana means what? Atmajnanabhihi nivishah bhavana. The bhavana means what? Bhagavad bhakti bhavana yadasti. Paramatmopari sampurna nischala bhavana yadasti. Tadrsha chintana bhavana paripurna established firm bhavana api nasti. When these are not there, you don't have a sitapragnata buddhi. Tatra bhagavad bhavana chintana nasti. तदा किं भवति अभावयतः शांति ही न भवति. He does not get शांति, peace of mind. अनंतरम शांति रहितस्य सुखम आनंदः अपि न भवति. कुतः how will it even become when the mind is not controlled? He is not able to place his mind on the Almighty. When once he is not able to place the mind on Almighty, it keeps on running in all directions. Adhyayetat arjanam vittarjanam kartavyam tatra dhanarjanam kartavyam janarjanam kartavyam paparjanam kartavyam evameva gacchati tatra buddhihi. It keeps on running. Evameva asmabhi uktamasit kila asha nama manushyanam kachid ascharya shrinkhala yaya baddhaha pradhavanti muktastishtanti panguvat. Evam tatra baddhaha pradhavanti, they keep on running again and again, behind and behind, everything. Evam tatra tasya buddhihi achala nabhavati paramatmani tatra bhavana nasti chintana nasti abhavayat yada tatra paramatmani chintana nabhavati tada tatra shantihi nalabhyeta yada shantir nalabhyeta tada sukhamapi navindeta. एवं तत्र सुखं न प्राप्नोति सः. आत्मज्ञान अभिनिवेशं अकुर्वतः उपशमः शांतिः. वेरी पवरफुल वर्ड अगेन. शांतिः इज नॉट ओनली पीस ऑफ माइंड. शंकराज यूज्ड वर्ड उपशमः. वेयर हैव वी सीन दिस वर्ड उपशमः? शमादि षट्क संपत्ति. द फर्स्ट चार्ट अवर साधना चार्ट इज देयर. देयर वी हैव शम दम तितिक्षा उपरति and sadhana. We have the shatka sati in that. Upashamaha is very very important. So upashamaha, shama, shama, dhamma, ityadikam sarvam tatra, they are the ones which lead to the peace of mind. Tarhi indriyanam hi vishaya seva trishnavataha nivrittihi ya tat sukham na vishaya 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 trishna dukkhameva sa. Na trishnayam satya sukhasya gandhamatram abhupapadyate tirtaha. Powerful words. Shankaracharya says, Trishnayam Satyam, when he is in that Trishna, in that Asha, in that running, when the mind is in Asha and running around, Tatra Sukhasya Gandhamatram Na Upapadyate. Even the smell of Sukha will not happen. Again, very powerfully put across by Shankaracharya. Only Shankaracharya can think of the most apt words for it, and I think after Shankara, the Madhusudana Saraswati's Gudartha Deepika can give, and apart from that, I think the next will be the Sridhariya Vyakhyanam also, which we can see and see how the perfect commentaries for these words and the apt words which can only be, which are totally irrepressible, Tadrasharitya Drashtum Shakyate. पश्यामः नास्ति बुद्धिः अयुक्तस्य नच अयुक्तस्य भावना नच अभावयतः शांतिः अशांतस्य कुतः सुखम् अस्ति. अगेन तत्र असुधातोः अस वर्तमान अस तत्र लट् प्रथमपुरुषे एकवचनम् अयुक्तस्य षष्ठी एकवचनम् अभावयतः षष्ठी एकवचनम् अशांतस्य षष्ठी एकवचनम् सुखम् प्रथमाविभक्ति एकवचनम् बुद्धिः स्त्रीलिंग प्रथम एकवचनम् भावना स्त्रीलिंग प्रथम एकवचनम् शांतिः स्त्रीलिंग प्रथम एकवचनम् कुतः व्ययम् अयुक्तस्य बुद्धिः नास्ति, अयुक्तस्य भावनाना अभावत अभावयतः शान्तिः न, अशान्तस्य कुतः सुखम्। अयुक्तस्य योगरहितस्य तत्र परमात्मविषय परमात्मनि तत्र अलीनस्य असमाहितान्तःकरणस्य बुद्धिः धीः आत्मस्वरूपविषया बुद्धिः न भवति। एवं रीत्या तत्र पदपदार्थं पदपरिचयम् अस्माभिः दृष्टमस्ति। तत्र सन्धिः सन्धिभागं पश्यामश्चेत् न अस्ति सवर्णदीर्घ, बुद्धिः अयुक्तस्य विसर्ग, च अयुक्तस्य च अभावयतः भूतः सवर्णदीर्घ, शान्तिः अशान्तस्य शान्तिरशान्तस्य विसर्ग रेफ, अयुक्तः न युक्तः अयुक्तः तस्य अयुक्तस्य अभावयतः न भावयन् अभावयन् तस्य अभावयतः, न शान्तः शान्तः अशान्तः तस्य अशान्तस्य। सो ऑल दीज वी हैव सीन। भावयतः भूधातोः णिच् प्रत्यय प्लस् शत्रु प्रत्यय, तत्र प्रत्ययद्वय द्वयं भवति। फस्ट् देर् इस् अ णिच् भावयतः भावयन्, सो देर् इस् अ अगेन शत्रु प्रत्यय, भूतकृत वर्तमान कृदन्त इस् एडेड् एण्ड् देर् फोर् वी गेट् भावयन् भावयतः वी गेट् षष्टिविभक्ति। एवम् अस्माभिः दृष्टमस्ति। सिम्पल् श्लोक अगेन् बट् अगेन् टाक्स् अबौट् द अनर्थपरम्परा। Clay allows itself to be moulded into any fine form, but baked clay is of no use for purpose. Mind burned by profane desires is incapable of defining divine mould. Samichinam. Tadarthameva kiritya gantavyam chet, very very apt, very perfect, told by Ramakrishna. Ramakrishna's examples are the one of the most perfect examples. Again, Pashyamas, when do we again, if have to, again, say our mind is burnt by desires, again we have to make ourselves into clay, what we have to do is again make ours fully surrendered to the Guru, to his what he wills, again into small pieces, again and utter it to the Satya, will again add that bhakti sinchanam, that is why it is called, that water to add, the mold, make us into pieces, by make us into again small pieces of sand, again we have slowly the Guru will make us into a moldable clay, and then again we will be able to go, probably. Again I am just thinking how there is a solution for the, if we have to take a solution for, let us say our mind is ardent, then is there no solution for us? Again when we go to the Guru and Satsangatihi, then again can again remold ourselves to clay, and then sampurna sharanati shishyasteham sham tvam prapnam ritya yadi gachhamaschete, again we can become moldable probably. So very good example. Pashyamah, simple shloka. Okay, thank you. So Pashyamah, we will take the next shloka also. This was a very simple shloka, but again difficult to implement. We'll try to take the next one also. Indriyanam hi charatam yanmano nu vidhiyate tadasya harati prajnam vayurnavami vambhasi. Very very good comparison, nice upamanam taken by Krishna. Ekavaram shlokam patantu अन्वयं पश्यामः कर्तृकर्म क्रियान्वेषणं. विल् ट्रै टु इण्ट्रोड्यूस् द श्लोक. वी हेव् अ फ्यू मोर् मिनिट्स्. अत्र पश्यामश्चेत् तत्र बुद्धि विच् इस् देर् द विवेचना मतिः यदस्ति तत् बोट् रूपेण स्थितमस्ति. मैण्ड् यत्र तत्र इन्द्रियसकाश मैण्ड् यदस्ति तत् विण्ड् भवति, और् मैण्ड् केन् आल्सो बि कम्पेर्ड् टु द बोट् मेन् एण्ड् हिस् टूल्स्, एण्ड् विण्ड् केन् आल्सो बि द सेन्स् आर्गन्स्. इन्द्रियाणि केन् बि द विण्ड्. The world is the samsara sagara, which is there is the world, and whatever our other objects also can be taken as the objects of feeling, that shabda sparsha roopa rasa gandha ityadikam would be the waters which are there in the ocean. If you are able to compare these, we know that how tatra स्ट्रांग विंड यदा भवति तत्र स्ट्रांग मनस यदा भवति तदा बोट द्विधा गन्तुं शक्यते इफ यू पुट द प्रॉपर तत्र द द याक व्हाटएवर दे से द द द tall thing what they put to the bird the boat if that is properly put and it is properly diverted into the correct direction with that kind of wind if we put it to the correct direction it will very very speedily very fast it will go to the samudra teera very fast it can the taranam the taraka will happen very fast so if there is an expert sailor then the expert boatman what he can do is whatever highest of wind he will be able to manipulate the sail and he'll be able to go and reach the goal but otherwise if we just leave it to the strong wind the wind will take us in different directions it will just toss us around in the sea and put us away tadarthameva vayuhu navam iva ambasi tatra tadarthameva evam dattamasti vayur navam iva ambasi कर्तृकर्म क्रियान्वेषणम् एकवारं पश्यामः कर्तृकर्म क्रियां वदतु नावम अंबसि नावम वायुहु इव वी कैन स्टार्ट फ्रॉम देयर आल्सो अंबसि नावम वायुहु इव नो चेत वी कैन स्टार्ट फ्रॉम कर्तृपदम चरताम मनः यत अनुविधीयते चरताम इंद्रियाणां मनः यत अनुविधीयते तत अस्य बुद्धिः हति तत् अस्य मनः प्रज्ञां हरति समीचीनं कीदृश मनः चरताम् इन्द्रियाणाम् अनुविधीयमानः मनः चरताम् इन्द्रियाणाम् अनुविधीयमानः मनः अस्य बुद्धिं वायुः अम्बसि नावम् इव हरति एवं रीत्या स्वीकर्तुं शक्यते मनः प्रज्ञां हरति मनः बुद्धिं हरति मनः प्रज्ञां हरति कीदृश मनः दट् मनस् विच् इस् बीङ्ग् फुल्ली कण्ट्रोल्ड् बै द सेन्स् आर्गन्स् ईस् लैक् अ बोट् विच् इस् कण्ट्रोल्ड् बै द वायु एण्ड् नाट् बै द बोट् मेन् देर् फोर् द बुद्धि शुड् बी फुल्ली कण्ट्रोल्ड् बै द आल्मैटि हू इस् द बेस्ट् बोट् मेन् ही इस् द परमतारकः परमकारुणिको भगवान् यः अस्ति परमतारकः ही इस् द बेस्ट् बोट्मेन् एवर् पासिबल् नाविकः सः एव अत्युत्तमनाविकः यः संसारसागरात् अस्मान् तारयति मैण्ड् दट् ईल्स् टु द रोविङ्ग् सेन्सस् समीचीनं मैण्ड् कीदृशमनः दट् ईल्स् टु द चरताम् इन्द्रियाणां कृते विच् ईल्स् टु इट् एवं चरताम् इन्द्रियाणां मनः यत् अनुविधि चरताम् इन्द्रियाणाम् अनुविधीयमानः मनः प्रज्ञां वायुः नावम् इव हरति सो टु जस्ट् गिव् द सम्मरी कैण्ड् आफ् अ थिङ्ग् लैक् द विण्ड् विच् क्यारीस् द बोट् इन् द वाटर्स् and not the boatman who is doing the rowing of it if the senses are controlling the mind and the mind is the boat then the senses if they start controlling it the boat also the body which is there the boat which is there it is totally pulled away and the prajna ityukte kim viveka nitya nistya vastu vivechana prajna what is nitya what is anitya what is sat what is asat the discrimination vivechana buddhihi matihi adasti it gets harati it is forcibly taken away evam tatra dashtum shakate charatam swasva visheshu pravartamananam indriyanam yasmat manah anuvidiyate anupravartate tat indriya visheya vikalpena pravartam manah atmanatma vivekajam prajnam nashayati What is prajna? Prajna is not again the materialistic brain, we are not talking about that. Atma, anatma, vivekaja, prajna, yadasti. Tatra nashaha bhavati. That differentiating mind, discriminating mentality, brain yadasti, tatra discrimination mentality, nashtaha bhavati. When indriyas control the mind, then buddhi gets destroyed. Therefore, what should happen? Mind should always control the indriyas, and then the buddhi will be fully controlled and it will move in the right direction and reach the goal. In the next class, we will try to take the example of a sarathi, atmanam, ratamiddhi, all those. Upanishad also gives about what is the, who is the chariot, who is the charioteer, who is the passenger, and how the ratha should go. Which is why, again, the Gita Upadesha is done in the ratha, and it the Gita Upadesha picture which is there always tells how exactly our mind, brain, who should control the main, everything is there. We will try to take that picture and try to analyze all this shloka in more detail. Ekavaram shlokam vadamaha, tatra two shlokas ekavaram vadamaha. Nasti buddhira yuktasya, nacha yuktasya bhavana, nacha bhavayata shanti rashantasya kutasukham, indriyanam hicharatam yanmanon vidhiyate, tadasya harati prajnam vayurnavami vambhasi. Yatra yogeshwara krishno yatra partho dhanurdharaha tatra shrir vijayo bhutir dhrivani tirmatir mama guru reva gatihi guru meva bhaje guru naiva sahasmi namo gurave na guru of paramam shirasmi guru ormatirasmi.